एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः भूपेन्द्र दाहालः। प्रधानमन्त्रिणा केपी शर्मा ओलिना स्वतन्त्र न्यायालयम् सम्मानयितुम् विचाराधीने न्यायिक प्रकरणे प्रभावकारिणीम् अभिव्यक्तिम् नदातुम् च सर्वे अनुरूद्धाः सन्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षश्च प्रधानमन्त्री ओली नेकपा दल निकटेन युवसंघेन ह्य काष्ठमण्डपे आयोजितम् कार्यकर्तृमेलनम् सम्बोधयन् स्वतन्त्र न्यायालयस्य निर्णये प्रभावसर्जनत्वेन अभिव्यक्तिम् न प्रकटयितुम् राजनैतिक दलानि नागरिक समाजस्य अग्रण्यश्च अन्वरुणत्। प्रधानमन्त्री ओली अवोचत लोकतन्त्रस्य सबलीकरणाय न्यायालयस्य स्वतन्त्रता सर्वोच्चता च सर्वै सम्मानयितव्ये। प्रधानमन्त्री ओली प्रतिनिधिसभायाम् अपर सर्वकार संगठनस्य विकल्पस्य अभावात् आत्मना निर्वाचनम् गन्तुम् निर्णीतमिति भाषमाणः कार्यसम्पादनाय असमर्थायाः प्रतिनिधिसभायाः विघटनकारिणा निर्णयेन लोकतन्त्रम् दुर्बलम् भवतीति निगद्य प्रसारितम् भ्रमम् न विश्वसितुम् सर्वान् अन्वरुणत्। प्रधानमन्त्रिणा ओलिना उक्तम् निर्धारित दिनांके निर्वाचनम् विधातुम् सर्वकारः प्रतिबद्धो वर्तते। आगामिनो वैशाख मासस्य सप्तदशे सप्तविंशे च दिवसयोः एव निर्वाचनम् भविता। प्रधानमन्त्री ओली दलस्य विधानस्य स्थापित मान्यतायाश्च आधारे नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य आधिकारिक समूहे आत्मभिः स्थितम् निर्वाचनायोगादपि एतदनुसारेणैव निर्णयः आगमिष्यतीति अब्रवीत्। प्रधानमन्त्रिणा ओलिना भाषितम् विकासस्य योजनानां माध्यमेन तराई पर्वत हिमालय क्षेत्राणां संयोजनत्वेन सर्वकारः कार्यं कुर्वन्नस्ति। नेपाली कांग्रेस दलेन प्रतिनिधिसभाया विघटनस्य विरूद्धे देशस्य त्रिंशदधिक शतत्रय प्रदेशसभानाम् निर्वाचन क्षेत्रेषु ह्यो विरोध प्रदर्शनम् विहितम्। ह्य काष्ठमण्डपे आयोजितायाम् विरोधसभायाम् नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा अवासत प्रतिनिधिसभायाः विघटनस्य विषय सर्वोच्च न्यायालय विचाराधीनोऽस्तीत्यतः न्यायालयस्य निर्णय स्वीकार्यो भविष्यति। असौ अगदत् सर्वोच्च न्यायालयात् महती जनता भवतीति हेतोः नेपाली कांग्रेस दलम् निर्वाचनात् न पलायते। ह्य एव विज्ञप्तिम् प्रकाश्य सभापतिः देउवा प्रतिनिधि सभायाः विघटनस्य कुशासनस्य भ्रष्टाचारस्य च विरूद्धे ह्य देशव्यापी रूपेण विहितेन शान्तिपूर्ण प्रदर्शनेन नेपाली जनतायाः भावना अभिव्यक्ता अस्तीति उक्तवान्। उपप्रधानमन्त्री ईश्वर पोखरेलः नेकपा दलस्य आभ्यन्तरस्य प्रचण्ड माधव समूहेन जनभावना उपेक्षिता स्थिति आरोपयति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य मकवानपुर जनपद मेलनम् ह्य सम्बोधयन् उपप्रधानमन्त्री पोखरेलः पञ्चानां वर्षाणां कृते केपी शर्मा ओली प्रधानमन्त्री भवतु इति जनतायाः अभिलाषः अपरपक्षेण न सम्मानितः इत्यतः समस्या उद्भूतेति अवोचत्। अर्थमन्त्री विष्णुप्रसाद पौडेलः वदति प्रतिनिधिसभायाः पुनस्थापनायाः सम्भावना नास्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य लुम्बिनी प्रदेश सम्पर्क समित्या गतदिने काष्ठमण्डपे आयोजिते लुम्बिनी प्रदेश स्तरीय सम्पर्क कार्यकर्तृमेलने असौ प्रतिनिधिसभायाः पुनस्थापनायाः सम्भावना राहित्यात् निर्धारित समये एव निर्वाचनम् सम्पत्स्यते इति विश्वासम् व्यक्तवान्। परराष्ट्रमन्त्री प्रदीप कुमार ग्यवाली निगदति वर्तमान सर्वकारः पूर्णावधिक अस्तीति हेतोः पूर्ववत् कार्याणि विदधाति। मोरङ जनपदीयया नेपाल बुद्धिजीवी परिषदा ह्यो विराटनगरे आयोजिते कार्यक्रमे मन्त्री ग्यवाली प्रधानमन्त्री केपी शर्मा ओली प्रचण्ड नेपाल समूहेन बहुमतस्य नाम्नि बन्दको विहित इत्यतः नवीन जनादेशस्य प्राप्तये निर्वाचनाय गन्तुम् बाध्यता सृष्टेति अतर्कयत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री भानुभक्त ढकालः प्रधानमन्त्रिणम् केपी शर्मा ओलिनम् बलपूर्वकम् सत्तायाः निष्कासयितुम् अविश्वास प्रस्तावम् आनेतुम् प्रयतितमिति हेतोः प्रतिनिधिसभायाः विघटनाय बाध्यकारिणी अवस्था सृष्टेति विचारम् अविव्यनक। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ निगदति विज्ञापन समितो विज्ञ समूहस्य प्रतिनिधित्वम् कार्यते। नेपाल विज्ञापन संघस्य एकविंशीम् साधारण सभाम् गतदिने काष्ठमण्डपे उद्घाटयन् संचार मन्त्री गुरूङ विज्ञापन समितो समावेशनीय विज्ञ समूहे नेपाल विज्ञापन संघस्य प्रतिनिधीनामपि सहभागिता भवतीति अभाषत। संचार मन्त्री गुरूङ विज्ञापन सम्बद्धायै प्रभावकारी व्यवस्थायै विधातव्यानाम् कार्याणाम् सम्बन्धे लिखित परामर्शान् दातुम् नेपाल विज्ञापन संघम् अनुरुन्धानः अगदत् सर्वकारः केनापि क्षेत्रेण विहितस्य उचित कार्यस्य कृते सदैव सहैव तिष्ठति। कृषि पशुपक्षी विकास मन्त्री पद्मा अरियाला भाषते दलस्य अध्यक्षेण महासचिवेन च सहितं दलमेव आधिकारिकं वर्तते। ह्यस्याङ्जा जनपदस्य वालिङस्थाने नगरस्य अग्रणी कार्यकर्तृमेलनं सम्बोधयन्ती मन्त्री अरियाला प्रचण्डस्य नेपालस्य च सम्बन्ध आगामि महाधिवेशनं यावदेव स्थास्यतीति टिप्पणीं कृतवती। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य उपाध्यक्ष वामदेव गौतम कस्मिन विपक्षे न स्थित्वा नेकपा दलस्य एकता राष्ट्रिय अभियाने संघटिततायै नेकपा दलस्य सर्वान् नेतृन् कार्यकर्तृञ्च आह्वयति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य एकता राष्ट्रिय अभियानस्य संयोजकस्य रूपेण ह्य आह्वान पत्रं प्रकाशयन् नेता गौतमः नेकपा दलस्य सर्वान् नेतृन् कार्यकर्तृञ्च स्वस्यैव स्थानत् नेकपा दलस्य एकताभियानस्य नाम्नि संघटनं निर्मातुम् आह्वयत्। नेत्रा गौतमेन विभाजनस्य पक्षे स्थिताः नेतारः कार्यकर्तारश्च कस्यापि समूहस्य नेतृन् कार्यकर्तृं दुर्वचनस्य शैल्यां न विरोद्धुमपि अनुरुद्धाः सन्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दलीय प्रचण्ड नेपाल समूहस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड यो भारतात् स्वदेशं प्रत्यागतो वर्तते। पत्न्या सीता दाहालस्य उपचाराय अस्यैव पौषस्य विंशे दिवसे मुम्बई नगरीं गत अध्यक्षो दाहाल पत्न्या उपचारस्य व्यवस्थां विधाय स्वदेशं प्रत्यावृत इति एतदीय सचिवालयो ज्ञापयति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य दाहाल नेपाल समूहस्य अध्यक्ष माधव कुमार नेपाल प्रतिनिधि सभाया विघटनस्य पश्चात् राष्ट्रं संकटे निपतितम् अस्तीति आरोपयति।